इन्द्रोरथाय प्रपदम् कृणोति यमध्यस्थान् मघवा वाजयन्तम् यूथेव पश्वोऽभ्यो नोति गोपारिष्टो जाति प्रथमस्विषासन् आ प्रद्रव हरिभोमाविवेनः पिसङ्गराते अभिनस्वतस्व नहि त्वदिन्द्रमस्यो अन्यतस्य मेनांसिज्जनीवतश्च कर्थ ोद्यसहसहसहाजनिष्टदेष्ट इन्द्र इन्द्रियाणि विश्वात् प्राचोदयत्सु दुघा भव्रे अन्तर्विज्योतिषा संवृत्तमोह वः अनवस्तेरथमस्वायदक्षङ्कष्टावज्रम् पुरुहो दद्युमन्तम् ब्रह्माण इन्द्रम् महयन्तो अर्कैरवर्धयन्नः देहम् तवावु ृष्णेयत्ते वृषणो अर्कवक्षानिन्द्रग्रावाणो अदितिः सजोषाः अनश्वासो ये पवयो रथा इन्द्रे चिताभ्यवर्तन्तरस्यूने कृते पूर्वाणि करणानि वोचम् प्रणोत नामघवन्या चकर्थ शक्ती वो यद्विभरारोदसी उभेजयन्नपो मनभेदानुचित्राः तदिन्नु ते करणम् दस्मभिप्राहिण्यधन्नोजो अत्रावीमीथाः शुष्णस्य चित्परी माया गृह्णाः प्रभित्वम् यन्न पदस्योऽङ्ग्रशेषः त्वमवो यद वे दुर्वसाजारमयः सुदुःखाः पारयन्द्र उग्रमजातमवाहो हकुत्सम् संभयद्वा कुशलारन्ददेवाः इन्द्राकुत्सामः मानारथेना वामत्या अपि कर्णे वहन्तु निःश्रीमध्योधमथो निःश्रधस्तान्मघो नो हृदो वरतस्तमांसि वादस्य युक्तान् सुयुजश्चिदस्वान् कविश्चिदेशो अजगन्नहस्युः विश्वेते अत्र मरुतः सखा जगिन्द्रब्रह्माणि तवीषीमवर्धन् सूरश्चिद्रथम् परितज्ञायाम् पूर्वम् रदुपरञ्जुजुवांसम् भरच्चक्रमेत सस्रम्रेणाति पुरो दधत्सनिष्यति क्रतुम् नः आयम् जना अभिदक्षे जगामेन्द्रः सखायम् सुरसोममिच्छन् पदङ्ग्रावा भवेदिम् प्रियादेकस्य धीरमध्वर्यवश्चरन्ति ये चाकनन्तचाकनन्तनूते मर्ता अमृतमोदे अम्भारन् वाबन्धियज्जो घृततेषु धेष्यो योजनेषु येषु ते स्याम